शंकराचार्य कृष्णप्रसाद स्वामी द्वारा रचित समाधि शतक समाधि तंत्र श्लोक नंबर 21 से 40 तक। उत्पन्न पुरुष भ्रांते स्थाण यद्वत् विचेष्टितं तद्वन्मे चेष्टितं पूर्वं देहाधिस्वात्म विभ्रमात् यथासौ चेष्टते स्थाणौ निर्वृते पुरुषाग्रहे तथा चेष्टोऽस्मि देहादौ विनिवृत्तात्मविभ्रमः येनात्मनानुभूयेह मात्मनेवात्मनात्मनि सोहं न तन्न सा नासौ नैको न द्वौ न वा बहु यदभावे सुसुप्तोऽहं यद्भावे व्युत्थिता पुना अतीन्द्रियमनिर्देश्यं त्वत्स्वसंवेद्यमस्म्यहं क्षीयन्ते त्रैव रागाद्यास् तत्त्वतो मां प्रपश्यतः बोधात्मानं ततः कश्चिन् न मे शत्रुर्न च प्रियः मामपश्यन्नयं लोको न मे शत्रुर्न च प्रियः मां प्रपश्यन्नयं लोको न मे शत्रुर्न च प्रियः त्यक्त्वैवं वैरात्मान् मन्तरात्मव्यवस्थिता भावयेत् परमात्मानं सर्वसङ्कल्पवर्जितं सोऽहमित्यात् संस्कारस्तस्मिन् भावनया पुनः तत्रैव दृढसंस्कारान् लभते ह्यात्मनिस्थितिं मूढात्मा यत्र विश्वस्ततो नान्यद्भयास्पदम् यतो भीतस्ततो नान्यो दव्यस्थानमात्मना सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना यत्क्षणं पश्यतो भाति तत्तत्त्वं परमात्मना।